अस्तु तर्हि अद्य नूतनपाठः आरभ्यते। एतावता अस्माभिः सार्वधातुकप्रक्रिया सम्पूर्णरीत्या पठिता, अपि च आर्धधातुकप्रक्रिया सम्यक्तया आरब्धा। अत्र सार्वधातुकप्रक्रिया नाम का इति चेत्, यथा वयं जानीमः सार्वधातुकसंज्ञकप्रत्ययः परः अस्ति चेत् कर्तृकः तदानीं कर्तृशब्दनिशबादयः विधीयन्ते इति कृत्वा धातुगणमनुसृत्य रूपाणि निर्मीयन्ते। अयं धातुः कस्मिन् गणे इति न ज्ञायते चेत् तत्र रूपं न सिद्ध्यति इति एकमस्ति। अनन्तरम् आर्धधातुकप्रक्रिया तत्र तथा नास्ति, यतोहि प्रत्ययः सार्वधातुकसंज्ञकः नास्ति। सार्वधातुकसंज्ञकः नास्ति इति कृत्वा कर्तृशप् इति शपादयः न विधीयन्ते। अतः यावन्तः धातवः सन्ति ते च सर्वे धातोः अन्तिमवर्णमनुसृत्य विभज्यन्ते। आकारान्त धातवः ईकारान्तः, ईकारान्त उकारान्तः, ऊकारान्त एतादृशं, पुनः तत्र यत्र हलन्तदातवः सन्ति तत्र उपधावर्णमनुसृत्य। एतत् सर्वं किमर्थमिति चेत् सूत्राणि तथा सन्ति। अतः यथा वयं जानीमः यत् सिद्धान्तकौमुद्यां यानि सूत्राणि सन्ति, याः प्रक्रियाः प्रदर्शिताः सन्ति, अपि च मातुः पाठे यानि सूत्राणि सन्ति, याः प्रक्रियाः प्रदर्शिताः, ताः च तानि सूत्राणि च ताः प्रक्रियाः समानाः। तत्र प्रक्रिया एक एव अस्ति, किन्तु आयोजनं कथमस्ति, आयोजनं कीदृशम् इति सिद्धान्तमवलम्ब्य तत्र महान् भेदः अस्ति। तत्र लघुसिद्धान्तमुदी सिद्धान्तकौमुदी इति यद्यपि शास्त्रीयशैली इति एतावता अद्य तत्र विश्वविद्यालयेषु गुरुकुलेषु तत्र शास्त्रीयशैली इति मन्यते, किन्तु वस्तुतस्तु पाणिनेः चिन्तनविधिः अपि च सिद्धान्तकौमुद्यां यः चिन्तनविधिः सः स च पृथक् अस्ति। पाणिनिग्रन्थः तत्र प्रक्रिया न प्रदर्शिता इति भवतु नाम, किन्तु पाणिनेः मनसि प्रक्रिया आसीत्। एतत् सर्वं दृष्ट्वा खलु तत्र सर्वाणि सूत्राणि विरचितानि, तेषां मनसि प्रक्रिया आसीत्। अतः वस्तुतः लट् इति अनन्तरं लिट् तत्र किमपि औचित्यं नास्ति। लट् लकारे तत्र कर्तृशप् शप् भवति, धातुगणम् अनुसृत्य एतत् सर्वं लट् लोट् लङ् विधि लिङ् भवति, तत्र साम्यमस्ति। लिट् इत्यस्य न कोऽपि सम्बन्धः, तत्र द्वित्वमस्ति, आर्धधातुकप्रक्रिया अस्ति, तत्र इरागमः अस्ति, अपि च विकर्णप्रत्ययः धातुगणमनुसृत्य विकर्णप्रत्ययः न भवन्ति इति कृत्वा इयं शैली पुरातना शैली अस्ति। लघुसिद्धान्तकौमुद्यां सिद्धान्तकौमुद्यां रेफ्रेन्स् बुक् माध्यमेन सम्यक् अस्ति इति तत्र न कापि शङ्का, रेफ्रेन्स् बुक्। किन्तु तत्र पाठनार्थं जनानां काठिन्यं किमर्थं, यतोहि साम्यं न वर्तते। एकस्मिन् पृष्ठे यत् प्रदर्श्यते, अपरस्मिन् पृष्ठे अग्रिमे पृष्ठे यत् प्रदर्श्यते, द्वयोः मध्ये साम्यं नास्ति। अष्टाध्याय्यां सर्वत्र साम्यं वर्तते। साम्यं दृष्ट्वा पाणिनिः किं कृतवान्, साम्यं दृष्ट्वा सम्पूर्णभाषा आयोजिता। माता किं कृतवती, एतत् सर्वं एतत् साम्यम् अवलोक्य दृष्ट्वा तदनुसृत्य प्रक्रिया अस्ति. अतः मातुः पाठे तिङन्तानां कृदन्तानां न कोऽपि भेदः. भेदः अस्ति आर्द्रदातुकप्रक्रिया सार्वदातुकप्रक्रिया. आर्द्रदातुकप्रक्रिया तत्र लट् लकारः पुनः शत्र प्रत्ययः, तत्र भेदः नास्ति. धातुगुणमनुसृत्यप्रक्रिया अस्ति, कर्तरीशबादयः विधीयन्ते, एतत् सर्वं समानमस्ति. अनन्तरं सुप् नाम प्रातिपदिकं भवति, अनन्तरं सुप्रत्ययः भव विधीयते इति भवतु नाम तद् अनन्तरमस्ति. किन्तु प्रातिपदिकस्य निर्माणार्थं या प्रक्रिया अस्ति शत्रप्रत्ययन्तस्य, अपि च लट्लकारे या प्रक्रिया अस्ति तत्र साम्यमस्ति इति कृत्वा पुनः आर्द्रदातुकप्रक्रियायाम् इदानीं वयं किं करिष्यामः, एतावता किं कृतम् अस्माभिः, यत्र यत्र इडागमः नास्ति, आर्द्रदातुकप्रक्रिया सर्वत्र धातुः कस्मिन् गणे अस्ति इति अस्माकम् अस्मिन् विषये न किमपि अवधानमस्ति. धातुगणस्य किमपि महत्त्वं नास्ति. धातोः अन्तिमवर्णः कः अजन्तदातुः अस्ति चेत्, धातु हलन्तदातुः अस्ति चेत् उपादायां कः वर्णः इति अनुसृत्य सर्वाणि सूत्राणि विरचितानि. अतः आदिदातुप्रक्रिया तथा अस्ति. प्रथमतया णिच् यक् यङ् यङ् लुक् यत्र यत्र आर्द्रदातुकप्रक्रिया अस्ति किन्तु इडागमः नास्ति, एतत् सर्वम् अस्माभिः दृष्टम्. यतोहि एकं सौलभ्यमस्ति, ततः तत्र पुनः साम्यमस्ति. आर्द्रदातुकप्रक्रियायां यत्र यत्र इडागमः न सम्भवति तत्र एकं साम्यमस्ति. अपि च तत्र प्रत्ययस्य आदिमवर्णः कः इति अनुसृत्य अपि साम्यमस्ति. अतः णिच् प्रथमतया अस्माभिः दृष्टम्. अनन्तरं यङ् यक् यङ् यङ् लुक् एतत् सर्वं वयं कृतवन्तः. यतोहि यकारादिप्रत्ययाः सन्ति, यकारः अदिति अस्ति चेत् तत्र वलादिः नास्ति, णिच् इति अपि वलादिः नास्ति. किन्तु अत्र यावन्तः यकारादयः प्रत्ययाः सन्ति तेषां नितरां साम्यमस्ति. आर्द्रदातुकसंज्ञकाः अपि च इदानुकूलाः न इति कृत्वा साम्यमस्ति. अतः वास्तविकशास्त्ररीतिः इयं पाणिनीयसूत्राणि अनुसृत्य एतत् सर्वम् आयोजितमस्ति मातुः चिन्तनं. तदेव वस्तुतः पाणिनेः चिन्तनं. लट् अनन्तरं लिट् इति औचित्यं नास्ति कथमपि. अतः अत्र अस्माभिः किं कृतमस्ति, णिच् अनन्तरं यकारादिप्रत्ययः, यकारादयः आर्द्रदातुकसंज्ञकाः प्रत्ययाः, इदानीम् इडागमः अधीतः. अधुना आर्द्रदातुकप्रक्रियायां यावन्तः प्रत्ययाः तकारादयः सन्ति तेषाम् अध्ययनं भविष्यति. अत्र लूट्लकारः अस्ति, लूट्लकारे तत्र प्रत्ययः अस्ति तास् तकारादिः. अयं तकारादि तत्र अत्र केवलं आर्द्रदातुकप्रक्रियायां केवलम् एकः एव तकारादिप्रत्ययः अस्ति यः तिङ्सम्बद्धः, स च तास्. अनन्तरं तुमुन् तव्यत् इत्यादयः तत्र प्रत्ययाः सन्ति, क्रमेण करिष्यामः. अत्र तिङ् वा कृत्वा न कोऽपि भेदः. तत्र सिद्धान्तकौमुद्यां कृत् पृथक् अस्ति, तिङ् पृथक् अस्ति, तत्र तस्य किन्तु औचित्यं नास्ति. मिलित्वा कर्तव्यमस्ति, यतोहि प्रक्रिया समाना अस्ति, यथा वयं कृतवन्तः सार्वदातुकप्रकरणे. सार्वदातुकप्रक्रियायां तत्र लट् लोट् लङ् विधि लिङ् दशसु धातुगणेषु अस्माभिः अवलोकितमासीत्, अनन्तरं शत्रुशानच्. इदानीं इदानीम् आर्द्रदातकप्रक्रिया आरप्स्यते, नाम तत्र यत्र इरागमः अस्ति, यावन्तः तकारादिप्रत्ययाः सन्ति तेषां मिलित्वा पठनं भविष्यति, अनन्तरं ततः अग्रे भविष्यति अस्माकं चिन्तनं. तर्हि एतेषु प्रथमतया तास् तत्र अधीयते अस्माभिः. किमर्थमिति चेत् सर्वन्यून अपवादाः सन्ति, न्यूनतम अपवादाः सन्ति तत्र इदागमप्रसङ्गे तास्. अपि च तृच् एतत् सर्वं समानमस्ति, नाम तास् तत्र लुट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं तत्र तृजन्तरूपं समानमस्ति, अतः तृच् मिलित्वा जायते एव, तत्र स्फुरति. यदा वयं लुट् करिष्यामः तत् तत्र तृच् इति कथं समाप्तमस्ति, क्रियते एवमेव अनायासेन. अस्तु, तर्हि तदर्थम् एव इदानीं यकारादयः प्रत्ययाः समाप्ताः, यत्र यत्र इडागमः न सम्भवति इदानीम् इडागमः अधीतः. इदानीं प्रथमः तकारादिप्रत्ययः अस्ति तास् इति अत्र क्रमेण आगच्छति. तर्हि आरभामहे, इदानीं हेमभगिनी आरब्धुम् इच्छति वा?
आं महोदय, पठिष्यामि. श्रूयते वा?
हा, श्रूयते श्रूयते.
अस्तु महोदय. लुट्लकारः गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते. न विद्यते अद्यतनं यस्मिन् अनद्यतनम्. अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्लकारो विधीयते. यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता. यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं तदा लुट्लकारः उपयुज्यते. अद्य वा श्वः देवदत्तः करिष्यति, अद्य वा श्वः देवदत्तः खादिष्यति इति. तर्हि अत्र लुट्लकारः कदा विधीयते इति अस्ति. यदि गतरात्रेः अन्तिमप्रहरात् इत्युक्ते द्वादशघण्टा अनन्तरम्, अपि च अद्य रात्रौ द्वादशपर्यन्तम् अद्य इति वदामः, यत्र ईदृशं नास्ति तर्हि तत् अनद्यतनम् इत्युक्ते श्वः तदनन्तरं यत्किमपि भवतु तत्र अनद्यतनम् इति वदामः. अपि च यदि कालद्वयमपि अस्माकं विवक्षायां वर्तते चेत् तत्र वयं लृट्लकारः एव योजयामः इति विषयः अस्ति. तर्हि
किमिति
महोदय?
उच्यताम्.
अत्र लिखितमस्ति यत् अनद्यतन अस्ति चेत् लुट् अस्ति, अनद्यतन अथवा अद्यतन अस्ति चेत् रिट् अस्ति. तर्हि लिट् लकारस्य अनद्यतन अपि अस्ति, अद्यतन अपि अस्ति, तर्हि लुट् लकारस्य का आवश्यकता?
आवश्यकता इति प्रसङ्गे तत्र यत्र सूत्राणि भवन्ति खलु, सूत्राणि यत्र भवन्ति तत्र आवश्यकता इति तादृशप्रश्नः उदेति. इदानीं भाषा तत्र पाणिनिः सूत्राणि रचितवान्, अतः आवश्यकता अनावश्यकता इति वक्तुं शक्नुमः. अत्र भाषागतप्रश्नः इदानीं, यतोहि भाषा न विरचिता खलु, अतः एतादृशप्रश्नः नाम किमर्थं तथा इति प्रश्नः तत्र भगवन्तं पृच्छामः, नाम किमर्थम् इयं भाषा एतादृशी अस्ति. नाम प्रश्नं प्रष्टुं शक्नुमः, किन्तु उत्तरं
प्रश्नस्य मम आशयः अस्ति यत् यदि लृट् लकारः अनद्यतन अथवा अद्यतन भविष्यत्काले द्वयोः स्थलयोः तस्य उपयोगः भवति, तर्हि लृट् लकारः पर्याप्तः अस्ति खलु?
भवतः प्रश्नः अवगतः मया,
हा
प्रश्नः अवगतः एव, किन्तु अहं वदामि अत्र उत्तरत्वेन वदामि यत् लूट् लकारः अस्ति अस्ति एव अतः पाणिनिः तस्य वर्णनं कृतवान् अस्ति इति कृत्वा. इदानीं किमर्थम् अस्ति इति यः भाषां विरचितवान् तं पृच्छतु. अत्र तादृश कोऽपि नास्ति खलु.
कुत्रापि अस्ति वा किमपि स्थानम् अस्ति वा यत्र लृट् लकारस्य उपयोगः समीचीनं नास्ति परन्तु लुट् लकारस्य एव अस्ति इति कुत्रापि अस्ति वा?
अत्र वदामि यत् प्रथमतया शैली अस्ति खलु, भाषायाः शैली अस्ति, शैली अस्ति. अतः यत्र साहित्यमस्ति, कविता अस्ति, छन्दः अस्ति, एतत् सर्वमपि द्रष्टव्यमस्ति. नाम संस्कृतभाषा बहु तत्र किं धनवती इति वदामः, रिच्, तत्र बहु किमपि अस्ति. तदर्थं तत्र वक्तुं शक्नुमः यत् कर्तव्यं करणीयम् अनयोः भेदः कः इति वदतु. किमर्थं द्वय अपि च पुनः तत्र कार्यं त्रयोः त्रयाणाम् अर्थः समानः, कार्यं कर्तव्यं करणीयं. तर्हि का आवश्यकता, त्यजामः, केवलं कर्तव्यमिति एव भवतु. करणीयमित्यस्य का आवश्यकता? शैली अस्ति, किन्तु शैली अस्ति खलु इति एकः, एका वार्ता अस्ति शैली अवश्यम्. अनन्तरं लूट्लकारः यत्र भवति, लूट्लकारः तत्र केवलम् एकस्मिन् प्रसङ्गे भवति, अन्यस्मिन् प्रसङ्गे न भवति खलु. अनद्यतन कालप्रसङ्गे भवति. अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लूट् लकारो विधीयते इति तत्र भेदः अस्ति. किन्तु इदानीं इतः अग्रे तत्र नाम मया इदानीं वार्ताद्वयं वार्तात्रयं वा उक्तम्. एकमस्ति यत् यत् वार्तात्रयं किमिति चेत् तत्र सूत्राणि तत्र दलसार्थक्यम् अथवा आवश्यकता एतादृशं चिन्तनं कर्तुं शक्नुमः, यतोहि सूत्रं नित्यं नास्ति, सूत्रं विरचितमस्ति, तस्य आरम्भः आसीत्. भाषा नित्या अस्ति न वा इति तत्र भिन्नवार्ता अस्ति. किन्तु मनुष्यैः तादृशी तत्र एकं निश्चितमस्ति यद् भाषा न विरचिता इति कृत्वा किमर्थम् इति तादृशप्रायः प्रश्नः, तस्य उत्तरम् एव न स्यात् तदर्थं, यतोहि भाषा विरचिता नास्ति. एकमस्ति. द्वितीयमस्ति शैली, कविता, छन्दः, एतत् सर्वमस्ति इति कृत्वा यत्र एकस्मिन् अर्थे बहूनि पदानि सन्ति, यथा कार्यं कर्तव्यं करणीयं, ततः अधिकं नाम एतत् बहु किमपि अस्ति, सुन्दरता, सौन्दर्यं, सुन्दरत्वं, तत्र शब्दत्रयं समानमस्ति, का आवश्यकता? तत्र वैविध्यमस्ति खलु, वैविध्यं तस्य मूल्यमस्ति इति एकमस्ति. अनन्तरं लूट्लकारः पुनः लिट्, तत्र द्वयोः अवधिः समानः नास्ति इति एकः अस्ति इति वार्तात्रयं मया उक्तमस्ति. अन्य कोऽपि वक्तुमिच्छति चेत् तत्र द्रोणमहोदय किमपि चिन्तनमस्ति वा अस्मिन्? न
महोदय, भवता यदुक्तं तत् सर्वमेव तावदेव अहमपि चिन्तयामि. तत्र भाषा अस्ति, तदनन्तरं भाषा अस्ति इति कृत्वा विवरणं कथं कर्तव्यम् इत्येतावदेव पाणिनिना. अन्यस्य भाषासमृद्धिः येन तत्र कवितायां वा अन्यत्र वा यथा वा सम्यक् रूपेण तत्र रचना स्यात् इत्येतदर्थमपि तत् युज्यते. तत् यावत् भवता उक्तं तदेव
चिन्ता. अस्तु, समीचीनमस्ति. तर्हि यशोवर्मः, तत्र सन्तोषजनकः अस्ति न वा?
अस्ति महोदय.
अस्तु अस्तु, तर्हि अस्माकं कार्यं किम्? अवगमनम्, अस्य अवगमनं भवतु. लकारः अस्ति, अस्माभिः ज्ञायेत. अस्तु. तर्हि हा हेमभगिनी तत्र समापितवती वा अथवा न स्मरामि इदानीं हेमभगिनी भगिनी अस्ति किमिति आम्
तर्हि अत्र अद्यतनमस्ति चेत् तत्र लिट्लकारः प्रयुज्यामः यदि अद्यतनं नास्ति चेत् अनद्यतनमस्ति चेत् तत्र लुट् प्रयुज्यते इति तर्हि तस्मिन् अर्थे अत्र सूत्रमस्ति अनद्यतने लुट् इति
एकनिमेषः तत्र पुनः वदतु यत्र यत्र किं
यत्र अद्यतनविषये वयं वदामः तत्र लृट्लकारं योजयामः अनद्यतनम् अस्ति इत्युक्ते लुट्लकारं योजयामः
भविष्यत्कालार्थे आम् अनद्यतनविष्यत्काले लृट् अपि भवति खलु
हा यदि द्वयोः प्रयोजनं यदा भवति तत्र वयं लिट्लकारं योजयामः इति
आमामां नाम केवलं यत्र मिलित्वा द्वयमपि वक्तुम् इच्छामः तत्रैव लृट् इति नाम श्वः आगमिष्यामि इति दोषाय नास्ति
दोषः नास्ति खलु महोदय
दोषाय नास्ति
तर्हि महोदय एतदस्ति चेत् अनद्यतनकृते लुट् अस्ति लिट् अपि अस्ति अद्यतनकृते केवलं लिट् इति खलु
असत्यम्
अद्यतनकाले लुट्लकारस्य प्रयोजनं न भवति
अस्तु अहं किमिति
न सूत्रं पठामि वा इति
हा समीचीनम् अस्ति अपर्णा भगिनी यतोहि केवलं
महोदय महोदय क्षमतां महोदय मम प्रश्नः अस्ति अत्र अहम् एकं वाक्यं वदामि सत्यं न वदतु रामः श्वः कार्यं करिष्यति एतत् लिट् लिट् भवति खलु
आम् दोषाय नास्ति
इदानीं रामः श्वः कार्यं कर्ता इति वक्तुं शक्नुमः वा
आम् रामः पुनः वाक्यं रामः
श्वः कार्यं कर्ता
इति वाक्यं यतोहि तत्र लिट्लकारः इतोपि सुलभः अस्ति तदर्थम् एतद् एव वदामः किन्तु दशलकाराणां प्रयोगः भवति चेत् वरं स्यात् तदेव समीचीनम्
अस्तु महोदय
इदानीं ज्ञास्यामः इदानीमेव ज्ञास्यामः लूट्लकारस्य कथमस्ति अस्तु अपर्णभगिनी अग्रे
महोदय अनद्यतने लुट् अनद्यतनभविष्यत्कालार्थे धातोः लुट्लकारो भवति अनद्यतने सप्तम्यन्तं लुट् प्रथमान्तं द्विपदमिदं सूत्रं भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः भविष्यत् धब्दस्य भविष्यत् शब्दस्य भविष्यति इति सप्तम्यन्तं रूपं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च अत्र अनद्यतने लुट् इति सूत्रं यत्र 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 लुट् भवति इत्यस्य विवरणं ददाति अत्र अनद्यतनभविष्यत्कालम् इत्युक्ते यथा पूर्वं हेमा भगिन्या उक्तं गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमपहरपर्यन्तं तत् अद्यतनकालं यत्र न अद्यतनं तत् अनद्यतनं तस्मिन् सन्दर्भे भविष्यत्कालार्थे धातोः अत्र लुट्लकारः भवति अत्र धातोः प्रत्ययः परश्च ये सर्वे अधिकारसूत्राणि सन्ति इत्युक्ते सर्वे प्रत्ययः धातोः परः भवेत् इति सूचयति भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तत् किमिति अहं न शक्नोमि. अत्र भविष्यत् शब्दस्य भविष्यति इति रूपम् इत्युक्ते अनद्यतने लुट् लुट् भविष्यति.
अत्र तिङन्तपदं नास्ति, भविष्यति अत्र तिङन्तपदं नास्ति, अवगच्छति वा?
हा, भविष्यति इति तिङन्तपदं नास्ति.
कीदृशपदं? सुबन्तम्.
ओ सुबन्तं, भविष्यत् शब्दस्य सप्तम्यन्तं रूपम्. ओ इत्युक्ते
भवत् भवति, भवत् इति भवान्, भवन्तौ भवन्तः, तत्र सप्तमी एकवचने भवति इति यथा
इति तथा. इत्युक्ते अनद्यतने भविष्यति, सर्वे सप्तम्यन्तरूपम् अस्ति, तस्मिन् सन्दर्भे धातोः लुट् प्रत्ययः परश्च.
अस्तु, अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च.
महोदय,
आम् उचितम्.
अत्र गतरात्रे अन्तिमप्रहरः, प्रहरः इत्युक्ते अत्र अर्थः कः?
प्रहरः तत्र दिनं विभक्तं भवति खलु प्रहरेषु, तत्र अष्ट प्रहराः सन्ति खलु, नव अष्टप्रहराः सन्ति. अत्र वस्तुतः एकस्मिन् ग्रन्थे मया दृष्टं ह्यः यत् प्रथमप्रहरपर्यन्तं तत्र अन्तिमप्रहरात् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् इति वस्तुतः केवलं द्वादश रात्रिवेलायां द्वादशवादनात् आरभ्य तत्र आगामिरात्रेः तत्र द्वादशवादनपर्यन्तम् इति ततः आरभ्य ततः पर्यन्तम् इति नास्ति. इदानीं तथा चिन्तयामः, यतोहि पाश्चात्यदेशेषु तिथिः तत्र परिवर्तते, किन्तु तस्मिन् ग्रन्थे लिखितमासीत् यत् अन्तिमप्रहरः गतरात्रेः अन्तिमप्रहरः अपि सम्मिलितः अस्ति, अन्तर्भूतः अस्ति अस्मिन्. अपि च आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् इति प्रथमप्रहरः अपि अस्ति इति न जानीमः, तत्र सम्पूर्णरीत्या स्पष्टं नासीत्, किन्तु तथा अस्ति चेत् तत्र ओवर्लाप् भवति खलु, प्रहरः एकस्य प्रहर, किन्तु यत्किमपि भवतु नाम वक्तुं शक्नुमः यत् अष्टप्रहराः सन्ति. अपि च द्वादशवादनादारभ्य द्वादशवादनपर्यन्तम् इति प्रायः चिन्तयितुं शक्नुयाम, तत्र न जाने सम्पूर्णरीत्या. इति प्रश्नः वा भगिनि?
सत्यं, तदेव प्रश्नः, तदेव प्रश्नः.
यत्र यत्र अयं लूट्लकारस्य विषयः आयाति तत्र तत्र एतादृशी चर्चा भवति. संस्कृतभारत्यां शिबिरेषु मया बहुवारं श्रुतं, न कदापि बहु अतीव स्पष्टं जातमस्ति, किन्तु एतादृश विवरणं भवति. धनुमहोदय अपि अस्मिन् प्रसङ्गे किमपि वक्तव्यं वा?
न महोदय, तत्र ज्योतिषिकाः तत्र जानीयुः कालगणना कथा भवति इति, वैयाकरणानां प्रायः स्पष्टं न भवति.
अस्तु अस्तु
अस्तु महोदय, धन्यवादः.
अस्तु तर्हि अग्रे गच्छेम. इति अन्यद्यतने लूट् इति अस्ति. अस्तु, यशोवर्णः तत्र अग्रे वाटिकम्.
आम् महोदय, परिवेदने श्वस्तनि भविष्यदर्थे वक्तव्या वार्तिकमस्ति. दुःखार्थे लुट् लकारः अद्यतनकाले अपि भवति. अत्र महोदय अत्र उदाहरणम् अस्ति, परिवेदने श्वस्तनि भविष्यदर्थे वक्तव्या. तर्हि परिवेदने इत्युक्ते दुःखार्थे, श्वस्तनि इत्युक्ते किं महोदय? अद्यतन वा श्वस्तनि इत्युक्ते?
श्वस्तनि भविष्यदर्थे, श्वस्तनि भविष्यदर्थे वक्तव्या. एकवारं सम्पूर्णरीत्या पठतु, अनन्तरं चर्चयामः.
उदाहरणमस्ति, इयं तु कदा गन्ता या एवं पादौ निदधाति. तस्य अर्थः अस्ति महोदय, एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति. अयं नु कदा ध्येता य एवम् अनभियुक्तः. एषा कदा पठिष्यति यः एवं प्रकारेण अलसः. तर्हि अत्र महोदय द्वयोः वाक्ययोः दुःखस्य भेदः, दुःखस्य भावः अस्ति अत्र. अतः दुःखस्य भावः अस्ति चेत् अद्यतनकाले अपि लुट् लकारस्य प्रयोगः समीचीनः इति अस्ति.
आम्, इदानीं वार्तिका वार्तिके तत्र श्वस्तनी भविष्यदर्थे वक्तव्या, श्वस्तनी भविष्यदर्थे वक्तव्या इत्यस्य एतादृश अर्थः कथम् आगच्छति इति द्रष्टव्यमस्ति. श्वस्तनी वक्तव्या,
श्वस्तनी तु प्रायः महोदय अनद्यतन एव भवति खलु.
किन्तु अद्यतनकाले अपि भवति इति कथं नाम एतादृश अर्थः आगच्छति इति मम अपि स्पष्टता नास्ति. परिदेव
महोदय, न्यू इत्युक्ते किम्?
यथा नूनम् अपि तत्र अव्ययमस्ति, केवलम् एकरीत्या अभिव्यक्तिः अस्ति. इयं नु नाम तत्र दुःखस्य, अत्र दुःखस्य अभिव्यक्तिः अस्ति.
नु तस्य अर्थः नास्ति वा?
अव्ययमस्ति. किमिति? खलु,
खलु इत्यस्मिन् अर्थे.
ओ, ननु इत्युक्ते.
हा, अस्तु. तर्हि अद्यतनकाले अपि दुःखार्थे अस्ति चेत् लुट् लकारः प्रयुज्यते इति वार्तिकम्. अस्तु, तर्हि अग्रे गच्छेम. लक्ष्मीभगिनी अग्रे.
आं महोदय, पञ्च उपाङ्गानि, यथा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. इमानि पञ्च उपाङ्गानि सन्ति: प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वम् अभ्यासकार्यं च. संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति: लिटि, सनि, चङि, यङि, श्लौ. लुट् लकारे न भवति, अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि. इत्युक्ते अत्र आर्धधातुकप्रत्ययेषु तत्र धातुभ्यः, आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा तस्मिन् प्रसङ्गे तत्र पञ्च उपाङ्गानि सन्ति, इत्युक्ते पञ्चकार्याणि सम्भवन्ति आर्धधातुकप्रक्रियायां. तत्र पञ्चकार्याणि कानि इत्युक्ते प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वम् अभ्यासकार्यं च इति पञ्च उपाङ्गानि सन्ति. किन्तु अत्र लुट् लकारस्य विषये अत्र केवलम् अत्र द्वित्वम् अभ्यासकार्यं न भवति. द्वित्वं केवलं पञ्चसु स्थलेषु एव संस्कृतभाषायां भवति. अत्र लिट् लकारे सन् प्रत्ययानां विषये चङि, यङि, अपि च श्लौ इत्युक्ते जुहोत्यादिगणे तथा द्वित्वं भवति. किन्तु लुट् लकारे द्वित्वम् अपि च अभ्यासकार्यं न भवति. अतः केवलं चत्वारि उपाङ्गानि एव अस्माभिः द्रष्टव्यानि.
तत्र यत्र यत्र कश्चन प्रत्ययः विधीयते धातुतः तत्र अङ्गकार्यं द्रष्टव्यमस्ति. अङ्गकार्यं भविष्यति प्रत्ययं निमित्तीकृत्य धातौ कार्यं भविष्यति इति सामान्यतया. अत्र तस्मात् प्राक् एतत् सर्वं भवति पञ्चोपाङ्गानि. वस्तुतः सावधातुकप्रक्रियायामपि अस्ति, किन्तु तावत् कार्यं नास्ति, कार्यं तावत् नास्ति यावत् अत्र अस्ति. अतः पृथक्तया एतादृशम् उक्तमस्ति. प्रत्ययादेशः इत्युक्ते सिद्धतिङ्प्रत्ययाः निर्मातव्याः. धात्वादेशः इति अतीवन्यूनमस्ति सावधातुकप्रक्रियायाम्, अधिकमस्ति आर्द्रदातुकप्रक्रियायाम्. अतः पृथक्तया उक्तमस्ति इदानीम् अत्र धात्वादेशः. इडागमः इति तत्र अस्माकम् इडागमः अस्ति, नाम इडागमः ज्ञातव्यः अस्ति. सर्वं कण्ठस्थीकृतं चेत् अत्र सौलभ्यम् अस्ति, नो चेत् प्रत्येकस्यां प्रक्रियायाम् इडागमः तत्र द्रष्टव्यः भविष्यति. अयं धातुः सेट् वा अनेट् वा वेट् वा. अतः एतादृशम् अभिज्ञानमस्ति चेत् महत् सौलभ्यमस्ति, महत् सौलभ्यम् इडागमः. अनन्तरम् अतिदेशः, यस्य स्वभावः तथा नास्ति तस्य स्वभावः एतादृशः अध्यारोप्यते. यथा ङित्वत् भवति सावधातुकप्रक्रियायाम्, अपित् अस्ति चेत् ङित्वत् भवति. तत्र अतिदेशसूत्राणि एकत्र सन्ति अष्टाध्याय्यां.
सार्वधातुकम् अपित्
सत्यं, सावधातुकमप्यत् इति सूत्रं. तत्र यत्र सावधातुकमप्यत् इति सूत्रमस्ति अष्टाध्याय्यां, तत्र अन्यानि अपि सूत्राणि सन्ति यत्र अतिदेशः विधीयते. तर्हि अत्र अतिदेशः द्रष्टव्यः अस्ति. तर्हि प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः इति क्रमेण द्रक्ष्यामः. अत्र द्वित्वं नास्ति. यत्र द्वित्वं, यत्र लिट्लकारः, तत्र लिट्लकारः यत्र यदा आगच्छति तदा द्वित्वम् अभ्यासकार्यमपि च अभ्यासकार्यं च अस्माभिः करिष्यते. अनन्तरमेव साधारणाङ्गकार्यमस्ति. अस्तु, तर्हि अत्र प्रत्ययादेशः, प्रत्ययादेशः इति विषयः आगतः अस्ति. तर्हि अत्र शुकवान् वा तत्र पठति वा?
हा महोदय, प्रत्ययादेशः अत्र लुट् लकारस्य सिद्धतिङ्प्रत्ययानां प्रक्रिया प्रदर्श्यते. मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति, ततश्च विवक्षामनुसृत्य लुट् लकारो विधीयते. हा, इदानीं तत्र प्रथम अङ्गमस्ति प्रत्ययादेशः इति. तत्र लुट् लकारस्य सिद्धतिङ्प्रत्ययानां प्रक्रिया अत्र अस्माभिः पठ्यते. तत्र मनसि भवेत् प्रथमं धातुः धातुः भवेत्, तदनन्तरम् अस्माकं विवक्षाम् अनुसृत्य तत्र लुट्लकारः, इदानीं विवक्षा अनध्यतने इति विवक्षा अस्ति चेत् तत्र लुट्लकारः विधीयते. धातुः तदनन्तरम् अनध्यतने लुट् इत्यनेन अनध्यतनभविष्यत् कालार्थे धातोः लुट्लकारः भवति. लुट् उपदेशे जुननाशक
एकं क्षम्यतां महोदय, बहु सम्यक् अस्ति. केवलम् अत्र वदामि किमर्थं लिखितमस्ति मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति ततश्च विवक्षामनुसृत्य लुट्लकारो विधीयते. किमर्थमिति चेत् अग्रे इदानीम् अस्मिन् भागे केवलं प्रत्ययानां चर्चा भविष्यति. मातुः चिन्तनविधिः अस्ति यत् सर्वं पृथक् 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 यत्र यत्र किमुच्यते कर्खाना तत्र विस्मृतवान् संस्कृतभाषायां किमस्ति तत्र यत्र किं वस्तु निर्मीयते तत्र पृथक् यथा कार्यानं यत्र निर्मीयते तत्र इञ्जिन् इति पृथक्तया यत्र ये जनाः इञ्जिन् इत्यस्य सिद्धतां कुर्वन्ति ते केवलं तदेव कुर्वन्ति आदिनं. तेषां वातानुकूलित निर्माणस्य तत्र किमपि कार्यं कोऽपि सम्बन्धः एव नास्ति. पृथक्तया सर्वं सर्वं भवति. तदानीं खलु नैपुण्यम् अनैपुण्यं तदानीं जायते यदा एकम् एकम् एकरीत्या कार्यं वारं 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 भवति. इति कृत्वा एकरीत्या कार्यं पृथक् क्रियते अस्माभिः अत्र केवलम्. अपि च एतत् सर्वं लघुसिद्धान्तकौमुद्यां सिद्धान्तकौमुद्यां वा नास्ति. सिद्धान्तकौमुद्यां सिद्धान्तकौमुद्यां सर्वं मिलित्वा भवति क्रमेण मिलित्वा भिन्नभिन्नरीत्या कार्याणि कार्याणि सन्ति. अत्र तथा नास्ति. अत्र प्रत्ययादेशः इत्युक्ते लूट् इति अस्ति. लूट् लूट् इति कस्य प्रत्ययः अस्ति. लूट् तत्र लकारः कस्य प्रत्ययः अस्ति. अनन्तरं क्रमेण कथं अष्टादश सिद्धतिङ्प्रत्ययाः भवन्ति इति अत्र इदानीं द्रक्ष्यामः पृथक्तया. एतत् सर्वं यदा अवलोकयन् मनसि भवेत् यत् वस्तुतः तस्मात् पूर्वं कश्चन धातुः अस्ति यस्मात् लूट् विधीयते इति तावदेव. यतोहि इदानीं इदानीं भवान् यत् पठिष्यति धातुः इति लिखितमस्ति. ततः अग्रे अस्मिन् भागे धातुशब्दः कोऽपि नास्ति कुत्रचिदपि. अस्तु महोदय.
लुट् उपदेशे जनुनासिक इत् इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत् संज्ञा. हलन्त्यम् इत्यनेन टकारस्य इत् संज्ञा. तस्य लोपः इत्यनेन द्वयोः लोपः. केवलं लकारः एव तिष्ठति अवशिष्यते. लस्य तिप्तस् जि सिप्तस्तस् मिप्वस् मस् तास् आतां झ थास् आतां ध्वम् इड् वहि महिं इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययः विधीयते. स्यतासि ऋ लुटोः इत्यनेन लुटि परे धातुतः तास् प्रत्ययः इति. अत्र अस्मिन् परिच्छेदे सम्पूर्णप्रक्रिया का इति उक्तं. तत्र प्रथमं धातुः, तदनन्तरम् अनद्यतने लुट् इति. अस्माकं विवक्षा अनद्यतने अस्ति चेत् तत्र लुट् भवति. तदनन्तरं तत्र लुट् इत्यत्र लुट् इति प्रत्ययः, तत्र टकारः अन्ते यः टकारः अस्ति तस्य हलन्त्यम् इत्यनेन इति संज्ञा प्राप्नोति. अपि च लकारस्य अनन्तरं यः उकारः अस्ति तस्यापि उपदेशे जुनुनासिक इत् इत्यनेन इत्संज्ञा प्राप्नोति. तस्य लोपः इत्यनेन द्वयोः लोपः भवति. इदानीं केवलं लकारः एव अवशिष्यते. लुट् इति प्रत्यय इति उपदेशे अवस्थायां यदस्ति प्रत्ययः अस्ति तस्य केवलं लकारः एव अवशिष्यते. तदनन्तरम् इदानीं लस्य इति सूत्रेण तत्र लकारः एव इदानीं स्थानि इति उक्तं. तस्मिन् स्थाने सिप्तस् जि सिप्तस्त मिप् वस्मस् तास् आतां झ थास् आतां ध्वम् इड् वहि महिं इति. तत्र पुनः अस्माकं विवक्षानुसारं तत्र अष्टादशप्रत्ययाः लकारस्य स्थाने विधीयते. तदनन्तरं स्यतासि लृ लुटोः इति नूतनसूत्रमस्ति. अनेन सूत्रेण तत्र लुटि परे धातुतः इत्युक्ते तत्र धातोः अनन्तरं किन्तु तिङ्प्रत्ययस्य पूर्वं तास् इति प्रत्ययः लुट् विवक्षायाम् आगच्छति इति दत्तम्.
महोदय, अत्र वस्तुतः प्रथमं शतासि लुटोः कार्यं करोति, तदनन्तरं लस्य आगच्छति खलु. प्रथमं शतासि लुटोः इति सूत्रेण तास् आगच्छति, धातुयोगः तास् योगः युगः लुट्, तदनन्तरं लस्य तिप्तसि इत्यनेन लुट् स्थाने तिङ् आगच्छति खलु.
सत्यम्.
आमामामां.
नो चेत् तिङ् प्रथमम् आगच्छति चेत् लुट् एव नास्ति.
न किं प्रथमतया नाम लस्य इत्यस्मात् प्राक् किमागच्छति?
अहं चिन्तयामि यत् धातुः अस्ति, तदनन्तरं विवक्षाया इत्यनेन धातुयोगः लुट् आगच्छति, तदनन्तरं प्रथम स्यतासि लुटोः इति सूत्रेण धातु लुट् मध्ये तास् आगच्छति, तर्हि धातुयोगः तास् योगः लुट्, तदनन्तरं लस्य तिप्तझि इति सूत्रेण लुट् स्थाने तिङ्ग भवति, धातुयोगः तास् योगः तिङ् प्रत्ययः इति न तु
श्यतासि लृलुट् प्रथमतया अनद्यतने लूट् इति अस्ति विवक्षाया
तदस्ति
विवक्ष तत्र लूट् लूट् इति भवति
तदनन्तरं श्यतासि लृलुटः आगच्छति तदनन्तरं लस्य न अत्र महोदय लिखितमस्ति यत् लस्य तिप्तर्झि तदनन्तरं श्यतासि लृलुटः
तत्र विद्याभगिनी मम तत्रैव तत्र चतुर्थाध्यायस्य चतुर्थे पाठे कथं लिखितमस्ति
महोदय अत्र यथा महोदय उक्तवान् तथैव अत्र स्यतासि लृलुटोः इत्यस्य निमित्तं लकारः अत्र लकारनिमित्तिकप्रत्ययः तर्हि लकारः अस्ति चेदेव तास् इति धातुभ्यः विधीयते तदनन्तरं लस लस्य
परन्तु स्थानिवत्त्वम् इति स्वीकर्तुं शक्यते खलु तत्र लकारस्य स्थाने प्रत्ययः आगतः तर्हि तत्र स्थानिवद्भावोऽपि भवितुमर्हति तर्हि लः तर्हि तत्र लकारः अस्ति एव
लकारः तु अवश्यमस्ति अत्र अत्र वस्तुतः तथा प्रदर्शितं भवति लस्य यस्मिन् यः क्रमः प्रदर्शितः अस्ति सः एव क्रमः प्रदर्शितः अस्ति इति मन्ये अपि च तच्च भगिनी एकवारं पश्यतु तत्र मनसि अस्ति यत् एतत् सर्वं तृप्तश्चि इति तत्रापि नाम चतुर्थ अध्यायस्य चतुर्थे पाठे अत्र अस्य जालस्थानस्य अत्रापि तथा न वा
न महोदय अत्र किमर्थं तथा नास्ति इत्युक्ते यदा हि लुट् स्थाने तिङ् प्रत्ययः आगच्छति चेत् तत्र धातुः इदानीं तिङ् प्रत्ययं पश्यति तर्हि कर्तरीशप् इत्यस्य प्रसक्तिः भवति अत्र तु लुट् लकारे कर्तरीशप् इत्यस्य प्रसक्तिः नास्ति किमर्थं नास्ति इति चेत् तत्र धातुः लकारमध्ययोः तास् इति प्रत्ययः प्रथमम् आगच्छति तदनन्तरमेव लस्य इत्यनेन तिङ् प्रत्ययः आगच्छति
अत्र अत्र एत अस्मिन् प्रसङ्गे द्रष्टव्यमस्ति अस्मिन् प्रसङ्गे द्रष्टव्यमस्ति यतोहि वस्तुतः मतभेदः अस्ति इदानीं मात्रं प्रक्षामि किन्तु अयं विषयः भवति यद् वदति यत् कर्तरीशप् न भवति अत्र वस्तुतः सिद्धान्तकौमुद्यां प्रदर्श्यते यत् लस्य अनन्तरं तृतीयस्ति अनन्तरं कर्तरीशप् इति अत्र तत्र प्रदर्श्यते कर्तरीशप् अनन्तरं कर्तरीशप् इति सूत्रं प्रबाद्य स्यतासि लृलुटोः माताजी तथा न वदति यत् कर्तरीशप् इति सूत्रं प्रबाद्य तत्र किमर्थं न वदति इति इदानीं मया विस्मृतमस्ति पुनः पृच्छामि तस्याः नाम सर्वप्रियः कश्चन विषयः अस्ति अत्र किन्तु स्यतासि लृलुटोः इति सिद्धान्तकौमुद्यां लघुसिद्धान्तकौमुद्यां च कर्तरीशप् इति सूत्रं प्रबाद्य भवति अतः किञ्चित् किञ्चित् द्रक्ष्यामि अस्तु अस्मिन् प्रसङ्गे अनन्तरं वक्ष्यामि इदानीं सम्पूर्णरीत्या न स्मरामि किन्तु
महोदय
करपत्रे भिन्नम् अस्ति महोदय
करपत्रे भिन्नम् आसीत्
सप्ताहद्वयं पूर्वम् एव मया पाठितं तत् अतः अहं स्मरामि तत् करपत्रे किं लिखितम्
अस्तु अस्तु मया द्रष्टव्यमस्ति स च पाठः चतुर्थ अध्यायस्य चतुर्थपाठः तत्र सापि मातुः पाठः इव आसीत् अस्तु अनन्तरं दृष्ट्वा वदामि अस्मिन् प्रसङ्गे प्रश्नः सम्यक् अस्ति वस्तुतः कश्चन विवादास्पदं विषयः इति मन्ये विवादास्पदं विषयः अस्ति इति मन्ये किन्तु किञ्चित् इतोपि दृष्ट्वा वक्ष्यामि अनन्तरं अग्रे गच्छेम तर्हि अद्य इदानीं सूत्रमस्ति तत्र विद्याभगिनी पठतु कृपया
स्यतासि लृलुटोः लृटि लृङ्गि च परे धातुतः स्य लुटि परे धातुतः तासि भवति तास् इकारः उच्चारणार्थः स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासि लृ च लुट् च तयोरितरेतरद्वन्द्वः लृलुटौ तयोः लृलुटोः स्यतासि प्रथमान्तं लृलुटोः सप्तम्यन्तं द्विपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परश्च स्यथासि प्रत्ययौ लृलुटोः. इदानीम् अत्र स्यथासि लृलुटोः इति सूत्रमस्ति. लृट् लकारे स्य इति लृट् लकारः अपि च लृङ् लकारे स्य इति प्रत्ययः धातुतः स्य इति प्रत्ययः आगच्छति. इदा हि परे लृट् लकारः अथवा लृङ् लकारः अस्ति. अनन्तरं तत्र लुट् लकारे धातुतः तास् इति प्रत्ययः विधीयते, परे लुट् लकारः अस्ति चेत्. तर्हि अत्र तासि इति दत्तमस्ति सूत्रे. स्य तासि तासि इति तत्र इकारः उच्चारणार्थः. स्यश्च तासिश्च तयोर् इतरेतरद्वन्द्वः स्यतासि इति द्विवचने अस्ति. स्यतासि प्रथमान्तं लृलुटोः सप्तम्यान्तं द्विपदमिदं सूत्रम्. अत्र सूत्रं तृतीयाध्याये अस्ति. तत्र धातोः इत्यस्य अधिकारः अस्ति, प्रत्ययः इत्यस्य अपि अधिकारः, परश्च इत्यस्य अधिकारः. अतः अनुवृत्तिसहितसूत्रं धातोः परश्च स्यतासि प्रत्ययौ लृलुटोः. तर्हि सूत्रमेव स्पष्टतया वदति खलु महोदय, अत्र लृलुटोः परः अस्ति चेत् एव धातुतः स्य अथवा तास् प्रत्ययः विद्यते इति. तिङ् प्रत्ययः आगच्छति चेत् लकारः नास्ति खलु?
अस्ति अस्ति, किमर्थं नास्ति, अस्ति एव. यथा महोदय द्रोणमहोदय उक्तमस्ति खलु,
स्थानिवद् भावः इति वा?
विवक्षा तु सर्वथा अस्ति खलु, लुट् अथवा लृट् तत् विवक्षा न गच्छति एव,
न गच्छति, नो चेत् प्रत्ययस्य अर्थः न भवति एव.
तर्हि अत्र किमर्थं लस्य इति न दत्तम्? अत्र अपरेषु स्थलेषु लस्य इति, अत्र लस्य इत्यस्यपि अनुवृत्तिः भवति खलु, अत्र लस्य इत्यस्य अनुवृत्तिः नास्ति.
अत्र
भगिनी सूत्रसङ्ख्या पश्यतु भगिनी, लस्य इति 3477 अस्ति, स्यतासि लुलुटोः इति तृतीयाध्यायस्य प्रथमपादे अस्ति.
अस्तु, परन्तु इत्युक्ते स्थानिवद्भावः कृत्वा एव अत्र तिङ्प्रत्ययः तिङ्प्रत्ययस्य विधानानन्तरं लकारः. तर्हि प्रश्नः अस्ति एव अत्र. अस्तु, क्रमः कः इति प्रश्नः अस्ति.
क्रमः नाम लस्य अपि च शतासि लृलुटोः खलु,
सत्यं.
दृष्ट्वा वक्ष्यामि, तत्र विवादास्पदं विषयः कश्चन अस्ति इति मन्ये, अनन्तरं दृष्ट्वा वक्ष्यामि. किन्तु अस्तु, स्यतासि लृलुटोः इति सूत्रं स्पष्टं खलु. अत्र लुटि परे धातुतः तासि भवति. अत्र लूट् लूट् लकारस्य लूट् प्रत्ययस्य स्थाने तिप्तश्चि इत्यादयः प्रत्ययः विधीयन्ते चेदपि अवश्यं सम्भवति, न सम्भवति इति तु नास्ति. तास्
तर्हि अत्र सार्वधातुकप्रक्रिया इति वक्तुं शक्नुमः खलु. इदानीं धातुः तिङ्प्रत्ययं साक्षात् पश्यति चेत् अत्र सार्वधातुकलकारः इति वदामः. इदानीम् अत्र धातुः तिङ्प्रत्ययं पश्यति, अतः सार्वधातुकलकारः इति किमर्थं न वक्तुं शक्नुमः?
यतोहि मध्ये मध्ये तास् आगच्छति,
तदनन्तरम् आगच्छति इति उक्तं खलु.
आगच्छति
अनन्तरम् आगच्छति. इदानीं धातुः तिङ्प्रत्ययं पश्यति, अत्र पूर्वं धातुः तिङ्प्रत्ययं पश्यति चेत् सार्वधातुकलकारः इति उक्तमासीत्.
न, यत्र शबादयः विधीयन्ते तत्र सार्वधातुकलकारः, तत्र एतादृशक्रमः तस्मिन् पाठे अस्ति इति मनसि अस्ति इदानीमपि, यत् सर्वे लकाराः आर्धधातुसंज्ञकाः खलु, नथिङ् न वा शित्.
सत्यम्.
अतः तत्र क्रमेण परिवर्तनं भवति. सर्वे लकाराः आर्धदातुकप्रकरण आर्धदातुकसंज्ञकाः, अनन्तरं सर्वे प्रत्ययाः सार्वदातुकसंज्ञकाः भवन्ति, तिप्तश्चि इत्यादयः सर्वे तिङ् सन्ति. अनन्तरं भिन्नभिन्नरीत्या कुत्रचित् साक्षात् विधीयते यत् न एतत् आर्धदातुकप्रत्ययः अयम्, अपि च कुत्रचित् मध्ये विकरणप्रत्ययः विधीयते इति मम मनसि अस्ति. एतत् सर्वं यत् प्रथमतया तिप्तस्जि तस्मिन्नेव पाठे प्रदर्शितमासीत्, तिप्तस्जि इति आगच्छति, अनन्तरमेव कुत्रचित् लिट् साक्षात् उच्यते यत् आर्धदातुकः न अयं प्रत्ययः आर्धदातुकः नाम अध्यारोप्यते. अनन्तरं कुत्रचित् मध्ये अनन्तरम् आगच्छति आर्धधातुकसंज्ञकः विकर्णप्रत्ययः यथा अत्र तास् अनन्तरम् आगच्छति खलु किं तस्मिन्नेव पाठे
तथा न पठितवन्तः महोदय
तथा नास्ति
तथा नास्ति
महोदय तत्र तु सरलरीत्या एव लिखितमस्ति प्रथमं तास् तदनन्तरं टिप् अस्ति अतः कदापि टिप् न पश्यति साक्षात् अतः आर्धातुकलः
न न तथा नास्ति भोः एकनिमेषः तत्र इदानीं पश्यामि यतोहि एकनिमेषः तत्र किं लिखितमस्ति
पठतु तावद्रीत्या यदि वयं चिन्तयामः चेत् सरलमेव अस्ति खलु महोदय कोऽपि दोषः नास्ति खलु
अस्तु समग्रदृष्टिः न तृतीयाध्यायः अस्ति अस्तु अस्य समयस्य सदुपयोगः नास्ति किन्तु अत्र विवक्षामनुसृत्य दशलकाराः सर्वे लकाराः ल इति एव भवन्ति अष्टाध्यायस्य तिङ्प्रत्ययः अभेदः अनन्तरं लकाराणां सिद्धप्रत्ययः अनन्तरं दशालकाराणां तिङन्तपदानि अस्तु अत्र पश्यतु तृतीय चतुर्थ अध्यायस्य तृतीयपाठः इति पश्यन् अस्मि अत्र लाधिकारः अस्ति पश्यन्तु तथा अत्र तथैव अस्ति यत् 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 इदानीं मया प्रदर्शनमस्ति अत्र तथैव अस्ति अत्र लट् लङ् लिङ् लोट् लिट् लुट् लृट् आशीर्लिङ् लुङ् लृङ् अनन्तरम् एतत् सर्वं ल इति एव भवति ल अनन्तरं किं प्रदर्शितमस्ति लस्य अनन्तरं तित् अस्ति इति सूत्रमस्ति पश्यन्तु तत्रैव लिखितमस्ति अनन्तरमेव लिखितमस्ति यत् वचनमित्यादिकं विधीयते अनन्तरं पुरुषत्वं विधीयते अनन्तरं सार्वधातुकप्रत्ययः आधातुकप्रत्ययः आरम्भे एते सर्वे तिङ्प्रत्ययः तिंशित् सार्वधातुकम् इति अनेन सार्वधातुकसंज्ञकाः इति लिखितमस्ति साक्षात्
पाठं पश्यति चेत् अत्र भिन्नरीत्या अस्ति महोदय
तृतीयपाठः चतुर्थपाठः अनन्तरं दक्ष्यामि किन्तु अत्र लिखितमस्ति अत्र लिखितमस्ति यत् कुत्रचित् एकनिमेषः त्रिंशत् चतुर्णाम् कुत्रचित् साक्षात् येषां सूत्राणां सूत्रसङ्ख्यां पश्यतु न एकनिमेषः परन्तु अत्र कश्चन सिद्धान्तः अवगन्तव्यः धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति यः प्रत्ययः सार्वधातुकः तत्र कर्तृ इति कर्तरि शब्दः शब्दकर्णप्रत्ययः विहितः भवति धातु तिङ्प्रत्ययोः मध्ये स्वप्रत्ययः आर्धधातुकश्चेत् तर्हि कर्तरि शब्दस्य प्रसक्तिर्नास्ति एव दशसु लकारेषु चतुर्णां लकाराणां कृते धातुना साक्षात् सार्वधातुक तिङ्प्रत्ययः दृश्यते ते च चत्वारः लकारः के लट् लुट् लङ् विधिलिङ् पुनः स्मर्यतां यत् तिंशित् सार्वधातुकमतेन सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः अस्ति सन्ति एव अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट् अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति नाम सार्वधातुकत्वं सर्वेषां भविष्यति परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इत्युक्तौ कर्त्रार्थे अपि शब्दकर्णप्रत्ययः न विहितः एतत् कथं सम्भवति कथम् एतादृशी स्थितिः इति चेत् तत्र पाणिनेः षण्णां येषां षण्णां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन द्वयोः लकारयोः कृते लिट् च आशीलिङ्ग् च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विदधाति अनन्तरं चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये अन्यप्रत्ययः विहितः भवति यः स्वयम् आर्धधातुकः एतत् सर्वम् अनन्तरं तिट् अस्ति इति पूर्वम् अस्तु अग्रे
तृतीयपाठे भिन्नम् अस्ति
महोदय. तृतीयपाठः एव इदानीं पठ्यमानः
न महोदय, अत्र उदाहरणं लिखितमस्ति लृट् लकारस्य कृते आप् लोगः लृट्, तदनन्तरम् आप् योगः ल, तदनन्तरं ककाति भूतं प्रथमं
लिखितम्
प्रायः शीतलभग्नि प्रायः म्यूट् करणे
अहं कृतवान्. अस्तु समीचीनमेव. अस्तु तर्हि अस्तु, यत्किमपि भवतु नाम अग्रे गच्छेम. इदानीम् अस्मिन् प्रसङ्गे किञ्चित् अनन्तरं द्रक्ष्यामि. इदानीं द्रोणमहोदय अग्रे कृपया.
प्रथमपुरुषे लुटः प्रथमस्य दारुरसः इत्यनेन परस्मिन् पदे टिप् इत्यस्थाने इत्यस्य स्थाने डा तत्र आगामस्ति चेत् तस् इति भवेत् खलु. तस् इत्यस्य स्थाने रौ, रि इत्यस्य स्थाने रस्, आत्मनेपदे त इत्यस्य स्थाने डा, आगाम् इत्यस्य स्थाने रौ, झ इत्यस्य स्थाने रस्. नाम तत्र प्रथमपुरुष प्रत्ययानां स्थाने तत्र आदेशाः तत्र विहिताः. टिप् इति प्रत्ययस्य स्थाने नाम लुटः प्रसङ्गे टिप् इत्यस्य स्थाने डा भवति, तस् इत्यस्य स्थाने रौ, झि इत्यस्य स्थाने रस्, तथैव आत्मनि पदे त इत्यस्य स्थाने डा, आताम् इत्यस्य स्थाने रौ, झ इत्यस्य स्थाने रस्. इदानीं सूत्रमस्ति लुटः प्रथमस्य डारौ रस स्पष्टमेव अस्ति. अन्यत्र तत्र अनेकावचित् पर्वचित्रेण सर्वे तत्र सम्पूर्णस्य प्रत्ययस्य स्थाने भवति. नाम तत्र तिप् इति सम्पूर्णम् अपगच्छति, डा इति आगच्छति तस्य स्थाने, यतोहि अनेकावचित् सर्वस्य इति तत्र तत्र आदेशाः अनेकाव् सन्ति इति कृत्वा तत्र सर्वस्य स्थाने.
अस्तु अस्तु. किं सूत्रमेकवारं पठतु कृपया, यतोहि नूतनं.
लुटः प्रथमस्य दारुरसः लुट् लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति. परस्मैपदे टिपः स्थाने डा, तासः स्थाने रौ, तसः स्थाने इति वक्तव्यं, तसः स्थाने रौ, झि इत्यस्य स्थाने रस्, आत्मनेपदे त स्थाने डा, आतां स्थाने रौ, झ स्थाने रस्, दश्च, रौश्च, रश्च तेषाम् इतरेतरद्वन्द्वः दारौरसः लुटः षष्ठ्यन्तं प्रथमस्य षष्ठ्यन्तं दारौरसः प्रथमान्तं त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं लुटः प्रथमस्य दारौरसः नाम केवलं प्रथमपुरुषस्य, अन्यत्र न प्रथमपुरुषस्य तत्र दारौरसः इति यथासङ्ख्यं तत्र तत्तत् स्थाने यथासङ्ख्यं दारौरसः भवति इति आशयः.
अपि च पुनः अनेकावचित् सर्वस्य इति किम् अस्ति अत्र?
आम् अत्र अनेकावचित् सर्वस्य इत्यनेन नाम तत्र टिप् इत्यस्य स्थाने डा इति उक्तं, तर्हि अत्र संशयः उदेति टिप् इत्यस्य तत्र हलवन्तस्य इत्यस्य प्रसक्तिः भवति वा, नाम अन्तस्य स्थाने केवलं पकारस्य स्थाने डा भवति वा इति प्रश्नः उदेति. तर्हि अत्र सूत्रम् आगच्छति अनेकावचित् सर्वस्य, अत्र यः आदेशः अस्ति डा इति एकाव् नास्ति, अनेकाव् अस्ति, डकारः अस्ति, डकारोत्तरवर्ती आकारः अस्ति, तर्हि अत्र औ द्वयं वर्तते इति कृत्वा अनेकाव् इति आदेशः अनेकाव् त्वक्त्वा आदेशस्य तत्र सर्वस्य स्थानिनः स्थाने आदेशः भवति. नाम तत्र न केवलं पकारस्य स्थाने अपि तु सम्पूर्णस्य तिप् इत्यस्य स्थाने डा इति आदेशः भवति, तथैव सर्वत्रापि तथैव चिन्तयति.
अस्तु अस्तु समीचीनमस्ति, धन्यवादः महोदय. तथा अस्तु अग्रे चन्द्रशेखर महोदय अग्रे.
परस्मैपदि संयक तिङ् प्रत्यय सिद्धिः श्रूयते किम्?
आं किन्तु किञ्चित् तावत् स्पष्टं नास्ति पुनः.
अस्तु परस्मैपदि संयकप्रत्ययसिद्धिः इदानीं श्रूयते वा?
न न सम्यक् नास्ति, न जाने किमर्थं तत्र बहु डिस्टोर्शन् अस्ति. सामान्यतया भवतः ध्वनिः बहु स्पष्टः भवति, किन्तु अद्य केनचित् कारणेन नास्ति, न जाने किमर्थम्. अस्तु, अन्यमाध्यमेन आगन्तुं शक्यते वा? न जाने, अत्र अवगन्तुमेव न शक्ष्यामः. अस्तु, तर्हि बालसुब्रह्मण्यं तत्र वदति वा?
परस्मैपदी सम्यक् किं प्रत्ययसिद्धिः श्रूयते वा?
आम्,
स्पष्टं वा?
आमां.
तास् योगति लुटः प्रथमस्य डारो रसः, ति स्थाने डा आदेशः, तास् योग ढा चुटु इत्यनेन डकारस्य इत्संज्ञा लोपस्य, थास् योग आ डकारस्थाने आ डा थास् आ, तेः इत्यनेन थास् प्रत्ययस्य डित् प्रत्यये ति भागलोपः स्यात्, किन्तु धातोः भसंज्ञा न भवति. अत्र ति भागलोपो न भवति चेत् डा प्रत्ययस्य डित्वं निष्प्रयोजनम् इति कृत्वा, तित्वसामर्थ्यात् तेः इत्यनेन तास् प्रत्ययस्य टि भागलोपः इत् योग आ ता इति रूपम्.
आमां, किञ्चित् जटिलमस्ति, बहु जटिलं नास्ति, किन्तु किञ्चित् न जाने बुद्धं वा? अत्र तेः इति पठतु कृपया. तेः
तेः इति सूत्रस्य भसंज्ञकस्य अङ्गस्य कि भागस्य डित् प्रत्यये परे लोपः भवति.
हा, पुनः यचि भम् इदानीं?
यचि भं सर्वनामस्थानसम्यकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादय यकारादयः अजादयश्च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति.
अनुवृत्तिसहितसूत्रम्
अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचि भम् महोदय भवानेव.
आमामाम्, अस्तु, हा, बुद्धम्. अस्तु, इदानीम् इदानीम् अत्र केन उक्तवन्तः तावता? इदानीं चन्द्रशेखरमहोदय आगतः खलु?
आम् महोदय, इदानीं श्रूयते किम्?
आमाम्, इदानीं सम्यक् अस्ति.
अस्तु,
भवानेव यदि पठितुं पुनः तर्हि पुनः पठित्वा, अत्र भागत्रयमस्ति, तास् योगः ति इत्यस्मात् अपि यचि भवति यावत् कृपया.
अस्तु, तास् योगः योगः ति लुटप्रथमस्य डारौ रसः, ति स्थाने डा आदेशः, तर्हि तास् योगः डा चुटुः चुटु इत्यनेन डकारस्य इत्यनेन लोपः च, तास् योगः आ. इदानीं तेः इत्यनेन तास् प्रत्ययस्य टिद् डित् प्रत्यये टि भागलोपः स्यात्, किन्तु धातोः भसंज्ञा न भवति. अत्र टि भागलोपः न भवति चेत् डा प्रत्ययस्य डित्वं निष्प्रयोजनम् इति कृत्वा, डित् डित्वसामर्थ्यात् तेः इत्यनेन तास् प्रत्ययस्य टि भागलोपः भवति एव. अस्तु, अत्र तास् योगः डा इति अस्ति, लुटप्रथमस्य डारोरसः इत्यनेन पूर्वं किमासीत् तत्र धातुः अपि च लृट् धातुः तदनन्तरं लिट् आसीत् तदनन्तरं तस्य लुट् क्षम्यतां लुट् लुट् इति आसीत् तदनन्तरं तस्य लुट् तन्तुतिप्तस्य आगच्छति. इदानीं शतासि लृ लुटोः इत्यनेन प्रथमपुरुषे तत्र ता प्रथमपुरुषे डा रौ रस् इत्यादेशः भवन्ति क्रमेण. तर्हि तास् इदानीं प्रथमं ता तिप् इति स्थाने डा इति स्वीकुर्मः. तर्हि धातुः तर्हि धातुः तास् योगः डा इति अस्ति. इदानीं डा इत्यस्मिन् चुटु इत्यनेन आ इति भवति. अत्र अत्र कार्यमेकं टेः इत्यनेन कार्यं भवितुम् अर्हति. परन्तु अत्र वयं क्रियापद विषयं पठामः. यतोहि भ संज्ञकः भ संज्ञा तु सुबन्ते भवति. यदि सुप् भवति प्रत्ययः तदा एव भवन्ति यचि भ संज्ञकः यचिबम् इत्यनेन सूत्रेण. तर्हि अत्र टे टेः इति सूत्रम् आगच्छति वा न वा इत्येव प्रश्नः खलु. अत्र टेः इति सूत्रं किं वदति, बस् ब संयोगस्य अङ्गस्य टी भागस्य डित् प्रत्यये परे लोपः भवति. अत्र डित् इति प्रत्ययः, परन्तु डित् इति प्रत्ययः अत्र लुट् इति प्रकरणे एव प्रक्रियायाम् एव भवति. तर्हि तदर्थमेव डित्वसामर्थ्यात् इति लिखितम्, अथवा टेः इत्यस्य सूत्रस्य निष्प्रयोजनं भवति, इत्यस्य सूत्रस्य अवकाशः एव न लभ्यते यदि वयम् अत्र सूत्रस्य प्रयोगं न कुर्मश्चेत्. तदर्थम् अत्र यद्यपि भस् भ यचिबम् इति सूत्रं सुबन्ते आगच्छति, सुबन्त निर्माणसमये आगच्छति, सुबन्तनिर्माणसमये आगच्छति, तथापि वयं टेः इति सूत्रस्य उपयोगं कुर्मः एव. इत्युक्ते टी टी भागस्य लोपः भवति डा प्रत्यये डित् प्रत्यये परे इति अस्ति.
केवलं स्पष्टीकर्तुम् इच्छामि यत् डिट् डिट् प्रत्ययः अन्यत्र अपि अस्ति. नाम सुप् प्रकरणे सुप् प्रक्रियायां तत्र डिट् भवति बहुत्र. तदर्थं टेः इति सूत्रमस्ति, भसंज्ञकस्य अङ्गस्य टि भागस्य डिट् प्रत्यये परे लोपः भवति इति कृत्वा डित्वम् अन्यत्र अस्ति. किन्तु अत्र डा इति प्रत्ययः अस्ति. अत्र डा इति प्रत्ययस्य डकारः किमर्थम् इति प्रश्नः इति वा उक्तम् अत्र इति एव अस्ति. दित्वं निष्प्रयोजनम् इत्युक्ते डा प्रत्ययस्य दित्वम्
अस्तु. इत्युक्ते डा प्रत्ययस्य अत्र टेः इति सूत्रस्य कृते एव डा दित्वम् अस्ति इति वदति वा भवान्?
न, अहं वदामि यत् प्रक्रियायां तेः इत्यस्य प्रयोगः भवति, प्रत्ययानां दित्वं भवति. एतत् सर्वम् आधिक्येन तत्रैव सुप् प्रसङ्गे. इदानीम् अत्र किन्तु एतादृशं कार्यम् अत्र अपि आवश्यकं. सूत्रं तदेव उक्तमस्ति तत्र वैयाकरणैः यत् प्रक्रियाग्रन्थेषु तत्र तेः इति सूत्रम् अत्रापि आवश्यकं. किन्तु अपि च डा इति तत्र डित्वम् अस्ति. किन्तु यतोहि यचि भवन्तिनेन तत्र केवलं सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययः यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्य भासंज्ञा भवति. अत्र सुप् इति प्रसङ्गः नास्ति एव इति कृत्वा यद्यपि तेः अपि यचिबं बहुत्र कार्यं कुरुतः अन्यत्र सुप्रसङ्गे कुरुतः तत्र भवति बहुत्र. किन्तु अत्र अपि आवश्यकं. तेषां कथनमस्ति यत् अत्र डित्वस्य प्रयोजनं नाम डा 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 इति प्रत्ययः अस्ति खलु तत्र दास्युगः डा. अत्र इत्संज्ञकः डकारस्य डाप्रत्यये तत्र प्रयोजनं किम्? अत्र तेहेति इति सूत्रद्वारा तस्य प्रयोजनं न सिद्ध्यति चेत् तत्र दित्वं निष्प्रयोजनम् इति कृत्वा यद्यपि तेः इत्यस्य सम्पूर्णरीत्या तत्र निमित्तत्वं नास्ति, यानि दलानि अपेक्षितानि तत्सर्वं नास्ति, यतोहि अत्र भसंज्ञा नास्ति, किन्तु यद्यपि भसंज्ञा नास्ति अत्र तथापि यतोहि तादृशं कार्यम् अपेक्षितमस्ति अपि च इत्संज्ञकटकारः अस्ति, अतः अत्र डाप्रत्ययस्य यद् दित्वम् अस्ति तस्य दित्वं निष्प्रयोजनं येन न स्यात् तदर्थं यद्यपि भसंज्ञः नास्ति तथापि अत्र तेहेति सूत्रस्य अत्र कार्यं भवतु।
महोदय, तेः इति सूत्रस्य अनुवृत्तिसहितसूत्रं किम्?
इदानीं सर्वं न लिखितमस्ति मम तत्र समयस्य अभावे, किन्तु अत्र यत् लिखितमस्ति तत्र तत्रैव अनुवृत्तिसहितसूत्रे एतत् सर्वमस्ति, अनन्तरं पूरयिष्यामि, मम पुरतः नास्ति इदानीं। किन्तु भसंज्ञकस्य अङ्गस्य टि भागस्य डिट् प्रत्यये परे लोपः भवति, टि भागस्य डिट् प्रत्यये परे भसंज्ञकस्य अङ्गस्य टि भागस्य लोपः, अत्र भसंज्ञकम् अङ्गं नास्ति, अङ्गमस्ति डिट् प्रत्ययः प्रत्ययः परः अस्ति, किन्तु अत्र भसंज्ञकभागं त्यक्त्वा वैयाकरणैः उच्यते यत् दित्वम् इत्यस्य सामर्थ्यात् कार्यं भवति। अस्तु, स्पष्टं स्यात्?
टी इत्युक्ते प्रथम अक्षरं विहाय सर्वं खलु?
टी भागः अस्ति वा? टी भागः इत्युक्ते अन्तिम यः वर्णस्वरूप वर्णसमूहः अस्ति तस्मिन् वर्णसमूहे अन्तिम अच् वर्णः अपि च ततः अग्रे अन्तपर्यन्तं यः भागः
अचोन्त्यादि टी।
आम् अस्तु, लक्ष्मीभगिनी अवगतं वा?
आं महोदय।
अस्तु, वदतु एकवारम्, अनन्तरम् अग्रे इच्छेम। वदति वा?
एकवारं ध्वनिमुद्रणं श्रुत्वा वक्तुं शक्नोमि महोदय।
अस्तु अस्तु, न न नास्ति चिन्ता, अस्तु अवश्यं। किन्तु वार्ता स्पष्टा जाता अस्ति खलु? शुकवनम तत्र स्पष्टमस्ति वा?
आं महोदय।
अस्तु,
एक महोदय एकः प्रश्नः अस्ति, अत्र भसंज्ञक केवलं सुबन्तपदेषु अस्ति, कथं जानीमः पुनः एकवारं?
न, अत्र यचि बम् इति सूत्रं पश्यतु, भसंज्ञा इति भसंज्ञकविधायकसूत्रमस्ति यचि बम्, सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्य शब्दस्वरूपस्य भसंज्ञा भवति, तर्हि सुप्रत्ययः ततः अग्रे भवेत्, अत्र तथा नास्ति।
ओ, सुप्रत्ययात् आरभ्य कप् प्रत्ययात् सर्वे प्रातिपदिकात् आगच्छन्ति वा?
आमामाम्
टेः इति सूत्रस्य सम्पूर्णसूत्रमस्ति, भस्य टेः डिति लोपः इति, अत्र भस्य टेः इति अस्ति, तत्र भसंज्ञक प्रातिपदिकात् परं तत्र डित् प्रत्ययः आगच्छति चेत् तदा टे भागस्य लोपः भवति इति, किन्तु अत्र अस्मिन् सन्दर्भे वैशिष्ट्यं किम् इति चेत् अत्र भसंज्ञक समये धातुः यद् प्रत्ययस्य पूर्वमस्ति तत्तु भसंज्ञकः नास्ति, तथापि तत्र टेः लोपः भवति इति। किमर्थम् इत्युक्ते इत्र इदानीं तत्र प्रत्यये डकारः उक्तः अस्ति, इत्युक्ते प्रत्ययः डा इति प्रत्ययः डित् अस्ति इति कृत्वा तस्य सामर्थ्यात् अत्र टेः भागस्य लोपः भवति, यद्यपि भसंज्ञकः नास्ति तथापि टेः लोपः भवति इति अत्र स्वीकृतम्. तदेव मुख्यवार्ता.
आम् अस्तु
महोदय.
एकनिमिषं महोदय, अत्र न विभक्तौ तु स्मः इति तस्य कार्यं किमपि नास्ति वा महोदय? तास् इति इदानीं सकारस्य
न विभक्तौ तु स्मः अत्र तिङ् पते तास् इति न तिङ् न वा सुप् न तिङ् न वा सुप् तास्
विभक्तिसंज्ञा नास्ति तत्र
नास्ति नास्ति.
अस्तु महोदय.
आम् अस्तु इदानीं किमिति
अत्र टेः इति सूत्रद्वयम् अस्ति यत्र तादृशं भवितुमर्हति वा? टेः इति इष्टनीयसून् प्रत्ययः अस्ति चेदपि टेः इति खलु
टेः इति द्वितीयं सूत्रं न भिन्नसूत्रम् अत्र तथा नास्ति. टेः इति सूत्रद्वयम् अस्ति सत्यम् अत्र एतदेव अस्ति. अस्तु अग्रे गच्छेम इदानीं. आमामामां भवान् पठतु.
अस्तु अहं मन्ये तत्र तास् योगा मातम् इति लिखितमस्ति परन्तु अत्र तास् योगान् तस् इति अहं मन्ये.
आमामाम् अत्र दोषः अस्ति. तत्र ह्यः एतत् सर्वं कृतं तत् प्रूफ् रीडिङ्ग् इति नास्ति. तास् योगः तस् तास् योगः तस्
तास् योगः तस् युटः प्रथमस्य तारौ रसः तास् योगः रौ रीच इत्यनेन तास् प्रत्ययस्य सकारलोपः तारौ रीचसूत्रम् अस्ति तास् प्रत्ययस्य सकारस्य लोपो भवति रेफादौ प्रत्यये परे रि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं तास् प्रत्यो लोपः इत्यस्मात् तासः लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तासः अङ्गस्य रि लोपः. अस्तु महोदय, अत्र सूत्रमस्ति रीच इति यदा तास् प्रत्ययः तास् प्रत्ययस्य सकारस्य लोपो भवति कदा इति वदति यदा पूर्वः रेफः अस्ति इति. तदा तास् अस्ति रौ इति प्रत्यय आदेशः अस्ति अतः सकारस्य लोपो भवति रीचसूत्रेण.
तर्हि तास् योगः तास् लुटः प्रथमस्य दारो रसः तिनेन तास् योगः रौ. अस्तु समीचीनमस्ति. रीच तिनेन तास् प्रत्ययस्य सकारलोपः तारो स्पष्टमस्ति
महोदय. अत्र दारो रसः इति परस्मैपदी आत्मनेपदी प्रत्ययेषु भवति खलु, अतः अत्र तास् योगः आतां साधु एव.
न तत्तु भवति, किन्तु इदानीं किमस्ति यत् इदानीं क्रमेण परस्मैपदिनः तत्र प्रत्ययाः सिद्ध्यन्ति. इदानीं प्रथमपुरुषस्य द्विवचनं तस् अनन्तरं क्रमेण नवानाम् अनन्तरम् आत्मनिपदि इति तत्र दोषाय नास्ति, किन्तु क्रमः अनन्तरं इदानीं जि इति अस्ति.
महोदय, तत्र प्रायः कृष्णः जानाति, परन्तु तत्र तास् मध्ये सकारस्य लोपः हलन्त्यम् इति सूत्रेण किमर्थं न भवति?
भवति न हलन्त्यम् इति किमर्थं न भवति इति.
आम् हलन्त्यं तास् प्रत्ययः अस्ति खलु, तत्र सकार हलन्त्यम् इति सूत्रेण तस्य इति संज्ञा किमर्थं न भवति?
तास् इति किमर्थं न भवति अत्र हलन्त्यम् इति उपदेशावस्थायाम्?
अथवा प्रायः प्रत्ययः
विभक्तिसंज्ञकः नास्ति. विभक्तिसंज्ञकः नास्ति
महोदय. अहं चिन्तयामि प्रत्ययः तासे इकारः उच्चारणार्थः तत् समीचीनं नास्ति खलु?
द्रष्टव्यमस्ति, यतोहि तथा लिखितमासीत् कस्मिंश्चित् ग्रन्थे तथा लिखितमासीत्, किन्तु दोषाय इति भाति इदानीं न जाने.
न विभक्तौ तु स्मः इत्यनेन अत्र इत्संज्ञा न भवति खलु?
अत्र विभक्ति नास्ति खलु,
सर्वे तिङ्प्रत्ययाः तु
तिङ्प्रत्ययः अथवा सुप्रत्ययः सन्ति चेदेव न विभक्तौ तु स्मः कार्यं करोति, न विभक्तौ तु स्मः. अस्तु, किञ्चित् प्रश्नः सम्यक् अस्ति. तासि इति उच्चारणार्थः तिलकितमस्ति, किन्तु तथा अस्ति चेत् द्रष्टव्यमस्ति. अग्रे गच्छेम. तासयोगः झि,
कः दोषः महोदय? इकारः उच्चारणार्थः अस्ति चेत् कः दोषः? दोषः नास्ति खलु.
इकारः उच्चारणार्थी अस्ति चेत् उपदेश अवस्थायां प्रत्ययः तास् अस्ति खलु.
तास् तर्हि
सकारस्य लोपः भवति हलन्त्यं सूत्रेण.
अन्तिमवर्णः हल् हल् वर्णः नास्ति खलु, अन्ते इकारः अस्ति.
न, इकारः कथम् अवगच्छति?
इकारः उच्चारणतः अथवा उपदेशे जनुनासिकः इत्यनेन इकारः गच्छति इति चिन्तयामः चेत्
न किन्तु इत्संज्ञकवर्णः अस्ति चेत् उच्चारणार्थः इति किमर्थं लिखितमासीत्?
उच्चारणार्थः अस्ति चेदपि अन्तिमवर्णः इकारः.
मूलप्रत्ययः कः अस्ति इति प्रश्नः अस्ति. तास् अथवा तासि?
तासि, तासि प्रत्ययः, तत्र प्रत्ययः तासि.
तासि अस्ति चेत् इकारः उच्चारणार्थे नास्ति.
उच्चारणस्य
भागः अस्ति.
आमां, किञ्चित् मम अपि प्रश्नः आसीत्. अस्तु, अयं प्रश्नः सम्यक् अस्ति. इदानीम् अन्ते किं गणेशमहोदय अस्ति वा, गतवान् वा? अस्तु, जीति कुर्मः एकवारं. जीति किम्? अस्तु, हेमा भगिनी पठतु कृपया. जि.
आं महोदय, अत्र एकनिमिषम्.
तास्योगः झि.
हा, तास्योगः झि. लुटः प्रथमस्य धारौ रसः, अनेन झि स्थाने रस् आदेशः भवति, तर्हि तास्योगः रस् इति स्थितिः. इदानीं रेफादि प्रत्ययः परे अस्ति इति कृत्वा रीच इति सूत्रेण तास् प्रत्ययस्य सकारस्य लोपः भवति, तायोगः रस् इति स्थितिः, तर्हि तारस् इति भवति. सकारः अन्ते अस्ति, ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः, अनेन अत्र विसर्गः भूत्वा तारः इति स्थितिः भवति. दाता, दातारौ, दातारः, तादृशम् आगच्छ.
अस्तु, स्पष्टं स्यात्. रीचा नूतनं किमपि नास्ति. अस्तु, अग्रे विद्याभगिनी, अग्रे.
वहसि तासस्त्योर्लोपः इत्यनेन सकारस्य लोपः, तर्हि तासि. अत्र सूत्रमस्ति तासस्त्योर्लोपः, तास् प्रत्ययस्य च अस्धातोः सकारलोपो भवति सकारे परे. तासस्त्योः षष्ट्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रं. सहस्यार्धधातुके इत्यस्मात् सि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. तास् अस्त्योः अङ्गस्य लोपः सि इति अस्ति. तर्हि तास् प्रत्ययस्य अपि च अस्धातोः अन्तिमसकारस्य लोपः भवति सकारे परे इति अस्ति. तर्हि अत्र तास् योगः सि, अत्र तास् इति प्रत्ययस्य अन्ते सकारः अस्ति, अनन्तरं सकारे परे तासस्योर्लोपः इत्यनेन सकारस्य लोपः, तायोगः सि, तासि.
अस्तु, समीचीनमस्ति. अपि च सिद्ध परस्मैपदि सिद्धतिङ्पदयानां
अत्र मुद्रणदोषमस्ति खलु.
कुत्र?
अत्र सस्त्योर्लोपः लिखितमस्ति,
तासस्त्योर्लोपः.
आमामामां, सत्यं, धन्यवादः. तासस्त्योर्लोपः इति, धन्यवादः, समीचीनम्. अस्तु, बालसुब्रह्मण्य,
अत्र अनुवृत्ति
किमिति?
तासस्त्योर्लोपः इत्यस्य अनुवृत्तिसहितसूत्रे अत्र तास् अस्त्योः अङ्गस्य सः लोपः सि, अत्र सकारस्य लोपः इति सूचनार्थं तस्यापि अनुवृत्तिः भवेत्.
अलोन्त्यस्य, अलोन्त्यस्य.
हा, अलोन्त्यस्य. अस्तु, बालसुब्रह्मण्यग्रे अवशिष्टानाम्?
अवशिष्टानां किमपि कार्यं नास्ति, केवलं प्रत्ययोः मेलनं. तास् योग तः, तास्तः, तास् योग ठ, तास्थ, तास् योग मी, तास्मि, तास् योग वः, तासः,
तास्योगमहा
इति कृत्वा नव सिद्धतिङ्प्रत्ययाः जाताः आत्मनेपदी इदानीं समयः अपि जातः किन्तु आत्मनिपदि संयोगप्रत्ययात् सिद्धिः इति अग्रे आयास्यति इति कृत्वा अस्माकं प्रथमं सोपानं नाम प्रत्ययादेशः अङ्गकार्यात् प्राक् यत्र प्रत्ययः अस्ति तस्मात् प्राक् यत् अङ्गकार्यं भविष्यति एतत् सर्व अस्य सर्वस्य करणात् प्राक् प्रत्ययादेशः धात्वादेशः इरागमः अतिदेशः तर्हि प्रत्ययादेशः इति न इदानीं जायमानः अस्ति. अस्तु तर्हि सम्यक् अस्ति. धन्यवादः सर्वेषां. नमस्कारः.
धन्यवादः महोदय. नमस्कारः.
धन्यवादः महोदय. नमस्कारः.
नमस्कारः.